दशम मंत्र का शंकर भाष्य। अन्यत पृथगेव विद्यया क्रियते फलमित्याहुर्वदन्ति विद्यया देवलोकः विद्यया तदरोहन्ति इति श्रुतेः। अन्यदाहुर्विद्यया कर्मणा क्रियते कर्मणा पितृलोकः इति श्रुतेः। इत्येवं शुश्रुं श्रुतवन्तो वयं धीराणां धीमतां वचनं। ये आचार्या नो अस्मभ्यं तस्मर्म च ज्ञानं च विचच्चाच्छिरे व्याख्यातवन्तस्तेषामयमागमः परम्परयागत इत्यर्थः।